नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् पीडाचतुस्सहाराजन् जायते सततं नृणां पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः आदित्यः सविता सूर्यः भूषाद्गः शीघ्रगोरविः भगः स्वष्टार्यमाहंसो हेजिस्तेजो निधिर्भरिः दिननाथो दिनकरः सप्त सप्तिर्प्रभाकरः विभावसुर्वेदकर्ता वेदाङ्को वेदवाहनः हरिदश्वकालवक्त्रः कर्म साक्षी जगत्पतिः पद्मिनी बोधको भानुः भास्करः करुणाकरः द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुतः जगन्नाथो अरविन्दाक्षः कालात्मा कश्यपात्मजः भूताश्रयो ग्रहपतिः सर्वलोक नमस्कृतः जपाकुसुम सङ्काशो भास्वानतिथि नन्दनः द्वां ते सिंहः सर्वात्मा लोकनेत्रो विकर्तनः मार्तण्डो मिहिरः सूरः तपनो लोकतापनः जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः सहस्ररश्मिस्तरणिः भगवान् भक्तवत्सलः विवस्वानादिदेवश्च देवदेवो दिवाकरः धन्वन्तरिर्व्याधिहर्ता ददृकुष्ठविनाशनः चराचरात्मा मैत्रेयो अमितो विष्णुर्विकर्तनः लोकशोकापहर्ता च कमलाकर आत्मभूः नारायणो महादेवः रुद्रोत्पुरुषईश्वरः जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः इन्द्रो नलो यमश्चैव नैऋतो वरुणो निलः श्रीदैशान इन्दुश्च भौमः सौम्यो गुरुः कविः सौहृद्विधुन्द्रुतकेतुः कालः कालात्मको विभुः सर्वदेवमयो देवः कृष्णः कामप्रदायकः ययेदैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः पुत्रवान् धनवान् श्रीमान् जायते स न संशयः रविवारे पठेद्यस्तु नामान्येतानि भास्वतः पीठा शान्तिर्भवेतस्य ग्रहाणां च विशेषतः सत्यः सुखमवाप्नोति च आयुर्दीर्घं च नीरुजम्।
Thank you.
नामानि शुभदानि महीपते यानि श्रुत्वा नरो दुःखान् मुच्यते नात्र संशयः सुधाकरो विदुः सोमो दौरग्जः कुमुदप्रियः लोकप्रियः शुभ्रभानुः चन्द्रमारोहिणीपतिः शशिः मकरो राजा द्विजराजो निशाकरः आत्रेय इन्दुः शीतांशुः मूषधीशः कलानिधिः जैवातृको रमा भ्राता क्षीरोदार्णव सम्भवः नक्षत्र नायकः शम्भु शिरश्चूडामणिर्विभुः तापहर्ता नभो दीपो नामान्येतानि पठेत् प्रत्यहम् भक्ति संयुक्तः तस्य पीडा विनश्यति तद्विने जपटेजस्तु लभेत् सर्वम् समीहितम् ग्रहादीनां च सर्वेषाम् भवेत् चन्द्रफलम् सदा। शक्तिधरो लोहिताङ्गो धरासुतः कुमारो मङ्गलो भौमो महाकायो धनप्रदः ऋणकर्ता दृष्टिकर्ता रोगहृद्रोगनाशनः विद्युत्प्रभो व्रणकरः कामदोदनहृत्कुजः सामगानप्रियो रक्तवस्त्रो रक्तायतैक्षणः लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः रक्तमाल्यधरो येमकुण्डलीग्रहणायकः नामान्येतानि भौमस्य यत्पठेत् सततम् नरः ऋणम् तस्य च दौर्भाग्यम् दारिद्र्यम् च विलक्ष्यति धनम् प्राप्नोति विपुलम् स्त्रियम् चैव मनोरमा वंशोद्योतकरम् पुत्रम् लभते नात्र संशयः यो वर्चये दण्डि भौमस्य मङ्गलम् बहुपुष्पकैः सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम्। बुद्धिमताम् श्रेष्ठो बुद्धिदाता धनप्रदः प्रियङ्गुकलिका श्यामः कञ्चनेत्रो मनोहरः कृपोपमोरौहिणेयो नक्षत्रेषु दयाकरः विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः च चन्द्रात्मजो विष्णुरूपी ज्ञानिज्ञो ज्ञानिनायकः ग्रहपीडाहरोदार पुत्रधान्यवसुप्रदः लोकप्रियो सौम्यमूर्तिः गुणतो गुणिवत्सलः पञ्चविंशति नामानि बुधः सैत्यानि अपठेत् स्मृत्वा बुधं सदा तस्य पीडा सर्वाभिलक्षति तद्भिगेवापठेद्यस्तु लभते समनोगतम्। जीवः सुराचार्यो विदाम्बरः वागीशो धिषणो दीर्घस्पर्शुः पीताम्बरो युवा सुधा दृष्ट्यग्रहाधीशो ग्रहपीठापहारकः दयाकरः सौम्यमूर्तिः सुराचकुड्मलद्युतिः लोकपूज्यो लोकगुरुः नीतिज्ञो नीतिकारकः तारामतिश्चाङ्गिरसो वेदवेद्यपितामहः प्रत्याबृहस्पतिं स्मृत्वा नामानेतानि अपठेत् आरोगी बलवान् श्रीमान् पुत्रवांसववेन्नरः जीवेत् वर्षशतं मर्त्यो पापं नश्यति नश्यति यः पूजयेत् गुरुदिने पीतगन्धाक्षकाम्पतैः पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् ब्राह्मणान् भोजयित्वा च पीठा शान्ति भवेत् गुरु। सुधीः हिमाभक्कुन्ततवलः शुक्लांशु शुक्लभूषणः नीतिज्ञो नीतिकृत् नीतिमार्गगामी ग्रहाधिपः उशना वेदवेदाङ्गपारकः कविरात्मवित् भार्गवः करुणा सिन्धुः ज्ञानगम्यः सुतप्रदः शुक्रः सैत्यानि नामानि शुक्रं स्मृत्वा तु यः पठेत् आयुर्धनं सुखं पुत्रं लक्ष्मीं वसतिमुत्तमां विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददार्तिः। शौरिः नित्यं स्मृतो यो हरते च पीडा तस्मै नमः श्रीरविनन्दनाय। सुरासुरा किं पुरुषोरकेन्द्राः गन्धर्वविद्याधर पन्नगाश्च पीठ्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय। नरा नरेन्द्रा पशवो मृगेन्द्राः वन्याश्च ये कीटपतङ्गभृङ्गाः पीठ्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय। देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशा पुरपत्तनानि पीठ्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय। तिलैर्यवैर्माषगुढानदानैः लोहेन नीलाम्बरदानतो वा प्रीणादिमन्त्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय। प्रयागकूले यमुनातटे च सरस्वती पुण्यजले गुहायां यो योगिनां ध्यानगतोऽभि सुष्मः तस्मै नमः श्रीरविनन्दनाय। अन्यप्रदेशात् स्वगृहं प्रविष्टः तदीयवारे स नरः सुखी स्यात् गृहाद्गतो यो न पुनः प्रयाते तस्मै नमः श्रीरविनन्दनाय। स्रष्टा स्वयम्भूर्भुवनत्रयस्य त्रादा हरीशो हरते पिनागी एकस्त्रिधारिक्यजुस्साममूर्तिः तस्मै नमः श्रीरविनन्दनाय। शन्यष्टगम्य प्रयद प्रभाते नित्यं सुपुत्रैर्पशुबान्धवैश्च पठेतु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते। कोणस्थपिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः शौरिशनैश्चरो मन्दः भिप्पदातेन संस्तुतः। एतानि दश नामानि प्राणरुद्धाय यः पठेत् शनैश्चर कृता पीडा न कदाचिद् भविष्यति। चित्तनन्दनः अर्थकाय सदा क्रोधी चन्द्रादित्यविमर्दनः रौद्रो रुद्र प्रियो दैत्यः सुर्भानुर्भानुवीचितः ग्रहराजसुधापायी रागादित्यभिलाषुकः कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः विधुन्तुदः सैन्धिकेयो घोररूपो महाबलः ग्रहपीटाकरो दंष्ट्री रक्तनेत्रो महोदरः पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः यत् पठेत् महती पीठा तस्य नश्यति केवलम् आरोग्यं पुत्रमतुला श्रियं धान्यं पशुंस्तदा ददाति राहु तस्मै यः पठति स्तोत्रमुत्तमम् सततं पठति यस्तु जीवेत् वर्षशतं नरः केतुर्विवर्णकः लोककेतु महाकेतुः सर्वकेतुर्भलप्रदः रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धदृद् भलालधूमसङ्काशः चित्रयज्ञोऽथवीतदृक् तारागणविमर्दी च जैमिनेयो ग्रहाधिपः गणेशदेवो विघ्नेशः विषरोगार्तिनाशनः क्रं प्राज्ञतो ज्ञानदश्च तीर्थयात्रा प्रवर्तकः पञ्चविंशति नामानि केतोर्यः सततं पठेत् तस्य नश्यति बाधा च सर्वा केतु प्रसादतः धनधान्य पशूनां च भवेत् पृथ्वीर्न संशयः